षण्मुखम् द्वादशभुजम् द्वादशाक्षम् शिखिध्वजम् शक्तिद्वयसमायुक्तम् वामदक्षिणपार्श्वयोः शक्तिम् शूलम् तथा खड्गम् खेटम् चापम् शरम् तथा घण्टाम् च कुक्कुटम् चैव पाशम् चैव तथाङ्कुशम् अभयम् वरदम् चैव धारयन्तम् कराम्बुजैः महाबलम् महावीर्यम् शिखिवाहम् शिखिप्रभम् किरीटकुण्डलोपेतम् खण्डितोद्दण्डतारकम् मण्डलीकृतकोदण्डम् काण्डैः क्रौञ्च धराधरम् धारयन्तम् दुराधर्षम् दैत्यदानवराक्षसैः देवसेनापतिम् देव कार्यैकनिरतम् प्रभुम् महादेवतनूजातम् मदनायुतसुन्दरम् चिन्तये हृदयाम्भोजे कुमारममितौजसम्।